ओम नमो भगवते वासुदेवाय। अथैकविंशोऽध्यायः। श्रीशुक उवाच, इत्थं सरत् स्वच्छजलं पद्माकरसुगन्धिना न्यविषद्वायुना वातं सको गोपालकोऽच्युतः। कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरः सरिन्महीध्रम् मसुपतिरवगाह्य चारयन् गाः सह पशुपालबलश्चुकूजवेणुम्। तद्व्रजस्त्रियाश्रुत्य वेणुगीतं स्मरोदयम् काश्चित् परोक्षम् कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप। बर्हापीडम् नटवरवपुः कर्णयोः कर्णिकारम् बिभ्रद्वासः कनककपिशम् वैजयन्तीम् च मालाम् रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर्वृन्दारण्यम् स्वपदरमणम् प्राविशद्गीतकीर्तिः। इति वेणुरवम् राजन् सर्वभूतमनोहरम् श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योभिरेभिरे। गोप्य ऊचुः, अक्षण्वताम् फलमिदम् न परम् विदामः सख्यः पशु ननु विवेशयतोर्वयस्यैः। वक्त्रम् व्रजे ससुतयोरनुवेणुजुष्टम् यैर्वा निपीतमनुरक्तकटाक्षमोक्षम्। चूतप्रवालबरहस्तबकोत्पलाब्ज मालानुपृक्तपरिधानविचित्रवेशौ। मध्ये विरे चतुरलम् पशुपालगोष्ठ्याम् रङ्गे यथा नटवरौ क्वच गायमानौ। गोप्यः किमाचरदयम् कुशलम् स्म वेणुर्दामोदराधरसुधामपि गोपिकानाम्। भुङ्क्ते स्वयम् यदवशिष्टरसम् हृदिन्यो हृष्यत्वचोऽश्रु मुमुचुस्तरवो यथार्याः। वृन्दावनम् सखि भुवो वितनोति कीर्तिम् यद्देवकी सुतपदाम्बुजलब्धलक्ष्मी। गोविन्दवेणुमनुमत्तमयूरनृत्यम् प्रेक्ष्याद्रिसान्वपरतान्यसमस्तसत्त्वम्। धन्यास्म मूढमतयोऽपि हरिण्य एतायानन्दनन्दनमुपात्त विचित्रवेशम्। आकर्ण्य वेणुरणितम् सह कृष्णसारा पूजाम् दधुर्विरचिताम् प्रणयावलोकैः। कृष्णम् निरीक्ष्य वनितोत्सवरूपशीलम् श्रुत्वा च तत्क्वणितवेणुविचित्रगीतम्। देव्यो विमानगतयः स्मरनुन्नसाराभस्य प्रसूनकबरा मुमुहुर्विनीव्यः। गावश्च कृष्णमुखनिर्गतवेणुगीत पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः। शावास्नुतस्तनपयः कवलास्मतस्थुर्गोविन्दमात्मनिदृशाश्रुकलाः स्पृशन्त्यः। प्रायो बताम्बविहगा मुनयो वनेऽस्मिन् कृष्णेक्षितम् तदुदितम् कलवेणुगीतम्। आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् शृण्वन्त्यमीलितदृशो विगतान्यवाचः। नद्यस्तदा तदुपधार्य मुकुन्दगीतमावर्तलक्षितमनोभवभग्नवेगाः। आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेर्गृह्णन्ति पादयुगलम् कमलोपहाराः। दृष्ट्वा तपे व्रजपशून् सह रामगोपैः सञ्चारयन्तमनुवेणुमुदीरयन्तम्। प्रेम प्रवृद्ध उदितः कुसुमावलीभिः सख्युर्व्यधात् स्ववपुषाम्बुद आतपत्रम्। पूर्णाः पुलिन्द्य उरुगाय पदाब्जराग श्रीकुङ्कुमेन दयितास्तनमण्डितेन। तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचे सुजहुस्तदाधिम्। हन्ताय मद्रिरबला हरिदासवर्यो यद्रामकृष्णचरणस्पर्शप्रमोदः। मानम् तनोति सह गो गणयोस्तयोर्यत् पानीयसूयवसकन्दरकन्दमूलैः। गा गोपकैरनुवनम् नयतोरुदारवेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः। अस्पन्दनम् गतिमताम् पुलकस्तरूणाम् निर्योगपाशकृतलक्षणयोर्विचित्रम्। एवंविधा भगवतो या वृन्दावनचारिणः वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयताम् ययुः। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायाम दशमस्कंधे पूर्वार्धे वेणुगीतम नामैकविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।